एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली राष्ट्रस्य समृद्धेः यात्रायाम् अवरोध प्रावकान् जनान् पराजित्य अग्रे वर्धितुम् दृढताम् व्यनक्ति। सप्ततितम राष्ट्रिय प्रजातन्त्र दिवसस्य अवसरे टुडीखेलस्थिते सैनिकमञ्चे ह्य आयोजितम् विशेष समारोहम् सम्बोधयन् प्रधानमन्त्री ओली विकास निर्माण वैदेशिक निवेशन प्रवृत्ति समृद्धेः महाभियाने अवरोध प्रापकाणि कार्याणि विधीयमानानि सन्त्यपि तथाविधेन अवरोधेन समृद्धेः यात्रा नावरुध्यतेति समस्पष्टयत्। प्रधानमन्त्री ओली अवोचत् राष्ट्रस्य सम्पन्नतायै निर्धारयितव्यो मार्गः दीर्घो वर्तते, तत् राष्ट्रं यात्रारतं चास्ति। संविधान क्रियान्वयनस्य पश्चात् सम्पन्नेन जननिर्वाचनेन निर्मितेन सर्वकारेण सम्प्रत्येव द्विवर्षीय कार्यकालः प्रपूरितोऽस्तीति स्मरन् प्रधानमन्त्री ओली अभाषत गतवर्षम् सर्वकारेण राज्य सञ्चालनस्य आधारवर्षस्य रूपेण सम्मतम्। प्रधानमन्त्री ओली उदयरयत् सम्प्रति संविधानानुसारेण राज्य संरचनाम् निर्माय संघीयताम् क्रियान्वीय वित्तीय व्यवस्थापनम् विधाय विधिम् जनशक्तिम् च समायोज्य च सर्वकारः अग्रे वर्धमानो वर्तते। प्रधानमन्त्री ओली फाल्गुनस्य सप्तम दिवसम् नेपालस्य इतिहासे प्रकाशस्य नवीन युगस्य च प्रारभवण दिवसस्य रूपेण अस्मरत्। प्रजातन्त्रस्य अधिकाराणाम् स्थापनायै विगत समये सम्भूते अनवरत संघर्षे आत्मोत्सर्गिणी वीर वीराङ्गनाः स्मरन् प्रधानमन्त्री ओली विगतकालस्य प्राजातान्त्रिकान्दोलनस्य गौरवमय इतिहासः केनापि न विस्मर्तव्य इत्यत्र बलमददात्। समारोहे राष्ट्रपतिः विद्यादेवी भण्डारी उपस्थिता आसीत्। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा कथयति सर्वैः मिलित्वा जनतायाः प्राजातान्त्रिकाधिकाराः संरक्षणीयाः। सप्ततितम राष्ट्रिय प्रजातन्त्र दिवसस्य अवसरे गतदिने सुनसरी जनपदस्य धरानगरे आयोजिते कार्यक्रमे सभापति देउवा अभाषत स्वतन्त्र न्यायपालिकायाम् सेनायाम् प्रहरीषु कर्मचारीषु च विना कारणेन केनापि हस्तक्षेपो न विधातव्य, असौ प्राप्तानाम् उपलब्धीनाम् रक्षणेन सह राष्ट्रम् समृद्धिम् प्रति अग्रे वर्धापितम् सदैव हुतात्मनाम् स्वप्नः पूरयिष्यते इति धारणाम् उपास्थापयत्। राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्ष कमल थापा भासते सर्वकारेण कस्मिन्नपि पक्षे राजनीतितः निषिद्धे सति प्रजातन्त्रे संकटः समापतति। सप्ततितम प्रजातन्त्र दिवसस्य अवसरे राप्रपा दलस्य मकवानपुर शाखया गतदिने हेटौडास्थाने आयोजिते कार्यक्रमे अध्यक्ष थापा अवोचत् संघीय लोकतान्त्रिक गणतन्त्रात्मक व्यवस्थाम् सबलाम् सुदृढाम् सर्वमान्याम् च सम्पादयितुम् सर्वकारेण गभीरेण प्रयतितव्यम्। राष्ट्रपतिः विद्यादेवी भण्डारी चतुर्थ निर्वाचन दिवसस्य अवसरे गतदिने निर्वाचनायोगे कान्तिपथस्थाने आयोजितम् विशेष समारोहम् समुद्घाटयत्। समारोहम् सम्बोधयन् प्रधानमन्त्री केपी शर्मा ओली अगदत् लोकतान्त्रिक गणतन्त्रस्य रक्षया अस्य सफल क्रियान्वयनेन च देशम् अग्रे वर्धापयितुम् प्रतिबिम्बित जनमतस्य निर्वाचनम् आवश्यकम् वर्तते। प्रधानमन्त्री ओली अवदत् निर्वाचनम् यथासम्भवम् न्यूनव्ययी स्वच्छम् निष्पक्षम् विश्वसनीयम् च विधातुम् आवश्यकम् वर्तते। समारोहे प्रमुख निर्वाचनायुक्ता दिनेश कुमार थपलिया निर्वाचनस्य व्यवस्थापने नागरिक शिक्षायाञ्च बलम् प्रददत् निर्वाचने प्रविधेः प्रयोगम् उच्च प्राथमिकतायाम् संस्थाप्य आयोगेन तृतीय रणनीतिक योजना क्रियान्वयने आनीता स्थिति अज्ञापयत्। प्रमुखायुक्त थपलिया आयोगेन गतदिवसत मतदान केन्द्राणाम् पुनरावलोकनस्य मतदातृ नामावल्या अद्यावधिकीकरणस्य च विशेषाभियानम् सञ्चाल्यमानमस्तीति अज्ञापयत्। स्वास्थ्य जनसंख्या मन्त्रालयेन चीनदेशस्य वुहान नगरात् उद्धृत्य आनीतेषु शते पञ्चसप्तत्यांश नेपालीषु नोवेल कोरोना जीवाणुनाम् संक्रमणम् नास्तीति ज्ञापितम् वर्तते। मन्त्रालयेन गतदिने पत्रकार सम्मेलनम् आयोज्य एतन्मासस्य चतुर्थे दिवसे वुहान नगरात् आनीतानाम् सर्वेषाम् नेपालीनाम् नासिकायाः कण्ठस्य च अभ्यन्तरात् गृहीतानाम् पदार्थानाम् निदर्शन परीक्षणे नोवेल कोरोना जीवाणुनाम् संक्रमणम् न प्राप्तमिति ज्ञापितमस्ति। भक्तपुरस्य खरीपाटी स्थितस्य नेपाल विद्युत प्राधिकरणस्य प्रशिक्षण केन्द्रस्थिते पृथक सुरक्षण परीक्षण केन्द्रे स्थापितानाम् एतेषाम् जनानाम् चतुर्दशे दिवसे तदनुसारेण एतन्मासस्य अष्टादशे दिनांके पुनः नासिका ग्रीवयोः पदार्थाः परीक्षितारः इति मन्त्रालयेन ज्ञापितम् वर्तते। परीक्षणे एतेषु संक्रमणस्य अभावे पुष्टिभूते एतेषु एते गृहेषु प्रेषयिष्यन्ते इति स्वास्थ्य जनसंख्या मन्त्रालयस्य प्रवक्ता महेन्द्र प्रसाद श्रेष्ठ ज्ञापयति। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड कथयति सर्वकारेण आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमेषु कर्णाली क्षेत्रम् विशेष रूपेण सम्बोधनीयम्। सुर्खेत विमानस्थले गतदिने पत्रकारै सह अध्यक्ष प्रचण्ड दलस्य प्रदेश मेलने आगामिषु नीति कार्यक्रमाय व्ययकेषु कर्णाली क्षेत्रस्य सम्बोधनात्मक विषयः विशेषेण उत्थितो वर्तते इति समाचारः।